एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना उत्पादनम् उद्यमशीलताञ्च प्रवर्ध्य विपन्नताया निवारणस्य विषयं प्राथमिकतायां स्थापयितुं राष्ट्रिय योजनायोगस्य पदाधिकारिणः निर्दिष्टाः वर्तन्ते। आयोगस्य कार्यसम्पादनस्य भावि कार्यदिशश्च विषये ह्य सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये उपाध्यक्षेण सहिते पदाधिकारिणाम् उपवेशे आयोगस्य अध्यक्षश्च प्रधानमन्त्री ओली पूर्वाधार विकासस्य कार्याणि प्रायः पूरणस्य चरणे सन्ति, अतः परं शिल्प विकासाय उद्यमशीलतायाः वृत्त्युपार्जनस्य अवसराणां सर्जनस्य कृषिक्षेत्रस्य विपुलोत्पादनानां निवेशनस्य च वर्धनाय च बलं दत्तवान्। प्रधानमन्त्री ओली राष्ट्रिय गौरवस्य आयोजनानां प्रभावकारिणः अनुगमनस्य मूल्यांकनस्य च उद्यमशीलतायाः विकासस्य जनतायी सेवा प्रवाहस्य सुशासनस्य च विषयाणाम् अनुकूल प्रभाव सर्जक कार्येषु प्रवर्तितुम् अन्मरुणत। तदवसरे आयोगस्य उपाध्यक्ष प्राध्यापक डाक्टर शिवराज अधिकारी षोडश योजनायाः क्रियान्वयनस्य एतस्याः समाह्वयानाम् राष्ट्रिय योजना कोषागारस्य नूतन मापद दण्डस्य परिमार्जनस्य च सन्दर्भम् उपवेशम् असूचयत। प्रधानमन्त्री केपी शर्मा ओली आगामिनो ज्येष्ठ मासस्य द्वितीयात् चतुर्थं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यमाणं सगरमाथा शिखर संवादं प्रभावकारिणं विधातुं निर्दिशति। सिंह प्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सञ्चाल्यमानस्य सगरमाथा शिखर संवाद सचिवालयस्य ह्य अवलोकनस्य पश्चात् प्रधानमन्त्री ओली कार्यक्रमायोजनायाः मुख्य सन्देशस्य प्रभावकारिणा प्रवाहेण सहितस्य व्यवस्थापनस्य कार्यं समीचीनमासीदिति सन्देशम् अन्ताराष्ट्रिय समुदायस्य समक्षम् प्रवाहयितुं निर्दिष्टवान्। संवाद कार्यक्रमस्य कृते प्रधानमन्त्रिण अध्यक्षतायां निर्देशक समितिः, परराष्ट्र मन्त्रिण डाक्टर आरजू राणा देवाभिधायाः अध्यक्षतायां, वनवातावरण मन्त्रिण ऐन बहादुर साई ठकुरी इत्यस्य सहाध्यक्षतायां च व्यवस्थापन समितिश्च संघटिते स्तः। एवमेव प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य सचिवस्य संयोजकत्वे सचिवालय संघटितो वर्तते। सर्वकारेण संवाद कार्यक्रमस्य कृते प्रतिवेशिभ्यां भारत चीन देशाभ्यां सह विभिन्न राष्ट्राणां प्रमुखाः सर्वकार प्रमुखाश्च विशेषातिथिरूपेण आमन्त्रिताः वर्तन्ते। मुङलिङ पोखरा मार्ग योजनायाः अन्तर्गते पूर्वखण्डे दशमलवैकोत्तर त्रिसप्तति किलोमीटर मिते मार्गे कृष्णवर्जिक करणस्य कार्यं सम्पन्नमस्ति। मार्गस्य पूर्वखण्डस्य स्थपतेः विष्णुप्रसाद पाण्डेभिदस्य अनुसारेण खण्डेस्मिन् दशमलवैकादशोत्तर त्रिसप्तति किलोमीटर मिते कार्ये मार्गे वज्रीकरणस्य कार्यं सम्पन्नमस्ति। सम्प्रति मार्गस्य पूर्वभागीय खण्डस्य दमौली बजारस्थाने कृष्ण वज्रीकरणस्य कार्यं प्रारब्धमस्ति। दैलेख जनपदस्य भैरवी ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य सियाला सामुदायिक वने वृक्षाणां सम्पीडनात् पूर्वे द्युः जनद्वयं मृतं वर्तते। मृतयोः स्थानीयौ 49 वर्षीय तर्क बहादुर साई, 27 वर्षीय इन्द्र बहादुर साई च वर्तेते। सालवृक्षस्य कर्तनस्य क्रमे तेनैव वृक्षेण सम्पीडनात् जनद्वयं मृतमिति स्थानीयः अग्रणी देवीराम आचार्यः अज्ञापयत्। विपक्षिदलानां समाजवादी संयुतेः उपवेशेन अस्यैव चैत्रस्य पञ्चदशे दिवसे काष्ठमण्डपे जनसभायाः आयोजनायै निर्णीतं वर्तते। समाजवादी संयुतेः ह्य काष्ठमण्डपे उपवेशेन अस्यैव चैत्र मासस्य पञ्चदशे दिवसे आयोक्ष्यमाणां सभां भव्यां सम्पादयितुं निर्णीतमस्तीति उपवेशे सहभागी नेत्र विक्रम चन्दस्य विप्लवस्य नेतृत्वस्य नेकपादलस्य नेता खड्गबहादुर विश्वकर्मा असूचयत। समाजवादी संयुत्या राजवादीनां सक्रियता गभीरा परिस्थिति जटिल सम्पादनस्य प्रयासश्च स्थिति निष्कर्ष प्रकाशितोस्ति। नेकपा दलस्य नेता विश्वकर्मा देशे जटिल परिस्थितेः सर्जनाय प्रयास विधीयमानोऽस्तीत्यतः गणतन्त्रस्य पक्षधर संयुत्या प्रदर्शनम् आयोक्ष्यमाणमस्तीति असूचयत्। नेकपा एमाले दलेन परश्वः चैत्रस्य चतुर्थे दिवसे केन्द्रीय सचिवालयोपवेशः आहूतोऽस्ति। उपवेशे दलस्य संघटनात्मक गतिविधिनां विषये सामयिक राजनीतिक विषयेष् च विमृक्षते इति नेकपा एमाले दलस्य केन्द्रीय कार्यालयस्य सचिवः डा भीष्म अधिकारी अज्ञापयत्। उपवेशः ललितपुरस्य च्यासल स्थानवर्तिनी एमाले दलीय केन्द्रीय कार्यालये दिवा एकवादनाय आहूतो वर्तते। काष्ठमण्डपे ह्यस्तनात् दिवसात् त्रिदिवसीयं हिमवत खण्ड कला साहित्य संस्कृति सम्मेलनं प्रारब्धं वर्तते। हिमवत क्षेत्रस्य विविध भाषा संस्कृतिं सभ्यतां ज्ञान परम्परां च आत्मसात् कृत्य लोकसंस्कृते प्रकाशनस्य उद्देश्येन प्रारब्धस्य सम्मेलनस्य शुभारम्भः पूर्वराष्ट्रपतिना विद्यादेवी भण्डारिणा विहितोऽस्ति। तदवसरे पूर्वराष्ट्रपति भण्डारी कला साहित्य संस्कृतीनां विषये विमर्शनात् चर्चातश्च हिमवत खण्डस्य गरिमा प्रकाशते इति विश्वासं व्यक्तवती। समारोहे मदन भण्डारी प्रतिष्ठानस्य अध्यक्ष उषा किरण भण्डारी आविश्वं प्रसिद्धैः नेपाली भाषीभिः जनैः नेपाली लोक संस्कृतेः साहित्यस्य कलायाश्च आयामं आत्मसारं व्यापां विधातुं ऐक्यबद्धैर्भाव्यमिति बलं दत्तवती। महोत्तरी जनपदस्य मटिहानी नगरपालिकायाः षष्ठवडा क्षेत्रे षणां शय्यानां प्रसूतिगृहं निर्मितं वर्तते। ग्रामीण वसतौ मटियानि स्थाने प्रसूतिगृहस्य निर्माणेन तत्र सहज स्वास्थ्य सेवाया प्राप्ति भवतीति विश्वासः जागृतो वर्तते। सम्प्रति प्रसूतेः करणाय दूरस्थ चिकित्सालयेषु गन्तव्यमासीत् अतः परम् उपचारात् वञ्चनावस्थायाः परिस्थिति न भविष्यतीति मटियानी नगरस्य प्रमुख हरिप्रसाद मण्डलः असूचयत्। राष्ट्रिय योजना आयोगस्य विशेषानुदान कार्यक्रमस्य अन्तर्गतं मटियानी नगरपालिकायाः आर्थिक स्रोतसः आसन्न कोटि द्वय रूप्यकाणां व्ययेन प्रसूतिगृहम् एतद् निर्मितं वर्तते। प्रसूतिगृहात् नगरपालिकायाः नवानाम् एव वडा क्षेत्राणां वसतीनां प्रतिवेशी वसतीनां निकटस्थ भारतीय वसतीनां च जनैः सहज सेवा प्राप्स्यते इति उपप्रमुख मंजू देवी शाह असूचयत्। मोरङ जनपदस्य विराटनगरे अद्यतः पञ्चकुण्डात्मक पाञ्चान्निक ब्रह्मयज्ञ प्रारभमाणो वर्तते। श्री त्रिदण्डी श्रीमन्नारायण चिन्नजियर स्वामीनां सान्निध्ये तत्वावधाने च विराटनगरस्य कञ्चनवारी स्थानवर्ति श्री लक्ष्मीनारायण मन्दिरे ब्रह्मयज्ञोऽयं विश्वशान्तिं प्रकाम्य अस्यैव चैत्रमासस्य षष्ठम् दिवसं यावत् सञ्चलिष्यतीति मन्दिरस्य अध्यक्ष कुमार खतिवडा अज्ञापयत्। इति समाचारः।